Saram, dear listeners, and welcome back to the studios of Radio Sai, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to go to the first segment of the evening session of this Thursday live. And this is Team Radio Sai's Ganesh inviting you all to yet another new episode of the Radio Sai Vedam Tutor. And without any further delay, we shall hand over the mic to Praveena sir to continue with the Mahanarayana Upanishad. Over to Praveena sir.
Om Sri Sai Ram. We shall commence the session with Ganesha Prarthana Mantra chanting together. Om
Ganana Antva Ganapati Gum Havamahe Kavin Kavinamupamashravastamam ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रुण्वन् नोतिभिः सीदसादनम् प्रणो देवे सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः
ॐ श्री साईराम. We have been learning Mahanarayana Upanishad, and in the previous session we had practiced the Gayatri Avahana Mantraha. So before we continue today, we shall quickly revise what we had learnt last time. That is, we'll chant the Samhita part of the Gayatri Avahana Mantraha. That is starting from Ayatu Varada Devi. We'll chant together.
Om Ayatu Varada Devi Aksharam Brahma Samhitam Gayatrim Chandasam Matedam Brahma Jushaswame Yadanhat Kurute Papam Tadannat Pratimuchyate यद्रात्रियात् कुरुते पापं तद्रात्रियात् प्रतिमुच्यते सर्ववर्णे महादेवे सन्ध्याविद्ये सरस्वती ओजोऽसि सहोऽसि फलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरो गायत्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि छन्दर्षीनावाहयामि श्रियमावाहयामि गायत्री त्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताग्रिर्मुखं ब्रह्मा शिरो विष्णुर्हृदयगुं रुद्रशिखा पृथिवी योनि प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा साङ्ख्यायन स गोत्रा गायत्री चतुर्विगुं शत त्यक्षरा त्रिपदा षट् कुक्षि पञ्चशीर्षोपनयने विनियोगः ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐमा भूज्योतिरसोऽमृतं ब्रह्मभूर्भुवः सुवरो उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि ब्राह्मणेभ्योऽभ्यनुज्ञात गच्छदेवि यथा सुखम् स्तुतो मया वरदा वेदमाता प्रचोदयन्ते पवने द्विजाता आयुः पृथिव्याम् द्रविणम् ब्रह्म वर्चसम् मह्यम् दत्त्वा प्रजातुम् ब्रह्म लोकम् घृणः सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरम् चितद्रसम् सत्यम् वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो.
फ्रम् हियर् वि आर् स्टार्टिङ्ग् the very next paragraph, which describes the Trisuparna Mantra. So I'll chant once, please repeat after me twice. Om Brahma Me Tumam.
Om Brahma Me Tumam.
Om
Brahma Me Tumam.
Madhu Me Tumam.
Madhu Me Tumam. मधुमेतुमाम्
ब्रह्ममेव मधुमेतुमाम्
ब्रह्ममेव मधुमेतुमाम् ब्रह्ममेव मधुमेतुमाम्
यास्ते सोमा
यास्ते सोमा यास्ते सोमा
प्रजावत्सोऽभिसो अहम्
प्रजावत्सोऽभिसो अहम् प्रजावत्सोऽभिसो अहम्
दुःस्वप्नहम् दुरुष्यः
दुःस्वप्नहम् दुरुष्यः दुःस्वप्नहम् दुरुष्यः
यास्ते सोमा
यास्ते सोमा यास्ते सोमा
प्राणागस्ताञ्जुहोमि
प्राणागस्ताञ्जुहोमि प्राणागस्ताञ्जुहोमि
यास्ते सोम प्राणागस्ताञ्जुहोमि
यास्ते सोम प्राणागस्ताञ्जुहोमि यास्ते सोम प्राणागस्ताञ्जुहोमि
त्रिसुपर्णमयाचितम्
त्रिसुपर्णमयाचितम् त्रिसुपर्णमयाचितम्
ब्राह्मणाय दद्यात्
ब्राह्मणाय दद्यात् ब्राह्मणाय दद्यात्
त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात्
त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात्
ब्रह्महत्
ब्रह्महत्याम् वा ब्रह्महत्याम् वा एते घ्नन्ते एते घ्नन्ते
ब्रह्महत्याम् वा एते घ्नन्ते
ब्रह्महत्याम् वा एते घ्नन्ते ब्रह्महत्याम् वा एते घ्नन्ते
ये ब्राह्मणाः
ये ब्राह्मणाः ये ब्राह्मणाः
त्रिसुपर्णम् पठन्ते
त्रिसुपर्णम् पठन्ते त्रिसुपर्णम् पठन्ते
ब्राह्मणास्त्रिसुपर्णम् पठन्ते
ये ब्राह्मणास्त्रिसुपर्णम् पठन्ते ये ब्राह्मणास्त्रिसुपर्णम् पठन्ते
ते सोमम् प्राप्नुवन्ति
ते सोमम् प्राप्नुवन्ति ते सोमम् प्राप्नुवन्ति
आसहस्रात्
आसहस्रात् आसहस्रात्
पङ्क्तिम् पुनन्ति
पङ्क्तिम् पुनन्ति पङ्क्तिम् पुनन्ति
आसहस्रात् पङ्क्तिम् पुनन्ति
आसहस्रात् पङ्क्तिम् पुनन्ति आसहस्रात् पङ्क्तिम् पुनन्ति
ॐ
ॐ
ब्रह्ममेधवा
ब्रह्ममेव मधुमेधया अद्यानो देवा
सवितः
प्रजावत्सावि सौभगम् अद्यानो देव सवितः प्रजावत्सावि सौभगम् विश्वानि देव सवितर्दुरितानि परासुवा
यद्भद्रं तन्म आसुवा
मधुवातारतायते मधुक्षरन्ति सिन्धवः
मधुवातारतायते मधुक्षरन्ति सिन्धवः माध्वेर्नः संतोषदेः मधुनक्तमुतोषसि
मधुमत्पार्थिवगुं रजः मधुनक्तमुतोषसि मधुमत्पार्थिवगुं रजः
मधुज्यौरस्तु नः पिता मधुमान्नो
वनस्पतिः
मधुमागुम् अस्तु सूर्यः
मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सूर्यः మధుమానో వనస్పతిర్ మధుమాగుం మస్తు సూర్యః
మాధ్వీర్గావో భవంతు నః
మాధ్వీర్గావో భవంతు నః మాధ్వీర్గావో భవంతు నః
నౌ వి షల్ చాంట్ ఫ్రమ్ ద బిగినింగ్ ఆఫ్ ది త్రిసుపర్ణ మంత్ర టిల్ హియర్ రిపీటింగ్ ఈచ్ సెంటెన్స్ ట్వైస్
బ్రహ్మమేతు మాం బ్రహ్మమేతు మాం మధుమేతు మాం మధుమేతు మాం బ్రహ్మమేవ మధుమేతు మాం బ్రహ్మమేవ మధుమేతు మాం యాస్తే సోమ ప్రజావత్సోభిసో అహం యాస్తే సోమ ప్రజావత్సోభిసో అహం దుష్వప్రహందురుష్యః యాస్తే సోమ ప్రాణాగస్తాంజుహోమి యాస్తే సోమ ప్రాణాగస్తాంజుహోమి త్రిసుపర్ణమయాచితం బ్రాహ్మణాయ దద్యాత్ త్రిసుపర్ణమయాచితం బ్రాహ్మణాయ దద్యాత్ బ్రహ్మహత్యాం వా ఏతే గ్రంథే బ్రహ్మహత్యాం వా ఏతే గ్రంథే ఏ బ్రాహ్మణాస్త్రిసుపర్ణం పఠంతే ఏ బ్రాహ్మణాస్త్రిసుపర్ణం పఠంతే తే సోమం ప్రాప్నువంతి తే సోమం ప్రాప్నువంతి ఆసహస్రాత్ పంక్తిం పునంతి ఆసహస్రాత్ పంక్తిం పునంతి ఓం బ్రహ్మమేధయా మధుమేధయా మధుమేధయా బ్రహ్మమేవ మధుమేధయా బ్రహ్మమేవ మధుమేధయా అద్యానో దేవసవిత ప్రజావత్సావీసౌభగం అద్యానో దేవసవిత ప్రజావత్సావీసౌభగం పరాదుష్వప్రియగుంసువా విశ్వాని దేవసవితర్దురితాని పరాసువా విశ్వాని దేవసవితర్దురితాని పరాసువా యద్భద్రం తన్మ ఆసువా యద్భద్రం తన్మ ఆసువా మధువాతారుతాయతే మధుక్షరంతి సింధవః మధువాతారుతాయతే మధుక్షరంతి సింధవః మాధ్వీర్న సంతోషధీః మాధ్వీర్న సంతోషధీః మధునక్తముతోషసి మధుమత్పార్థివగుం రజః మధునక్తముతోషసి మధుమత్పార్థివగుం రజః మధుజ్జౌరస్తు నః పితా మధుజ్జౌరస్తు నః పితా మధుమానో వనస్పతిర్మధుమాగుం అస్తు సూర్యః మధుమానో వనస్పతిర్మధుమాగుం అస్తు సూర్యః మాధ్వీర్గావో భవంతు నః మాధ్వీర్గావో భవంతు నః
య ఇమం త్రిసుపర్ణమయాచితం
య ఇమం త్రిసుపర్ణమయాచితం య ఇమం త్రిసుపర్ణమయాచితం
బ్రాహ్మణాయ దద్యాత్
బ్రాహ్మణాయ దద్యాత్ బ్రాహ్మణాయ దద్యాత్
య ఇమం త్రిసుపర్ణమయాచితం బ్రాహ్మణాయ దద్యాత్
య ఇమం త్రిసుపర్ణమయాచితం బ్రాహ్మణాయ దద్యాత్ య ఇమం త్రిసుపర్ణమయాచితం బ్రాహ్మణాయ దద్యాత్
భ్రూణహత్య ఏతే ఘ్నంతే
భ్రూణహత్యాం వా ఏతే ఘ్నంతే भ्रूणहत्याम् वा एते घ्रन्ते ये ब्राह्मणास्त्रिसुपर्णम् पठन्ते
ते सोमम् प्राप्नुवन्ति
आसहस्रात् पङ्क्तिम् पुनन्ते
ॐ
ॐ ब्रह्मा देवानाम्
पदवीः कवीनाम्
ऋषिर्विप्राणाम् महिषो मृगाणाम् ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम्
श्येनो गृध्रानाग्
स्वधितिर्वनानागुम् सोमः पवित्रमत्येति
रेभन्न श्येनो गृध्राणागस्वधितिर्वनानागुम् सोमः पवित्रमत्येति रेभन्न
श्येनो गृध्राणागस्वधितिर्वनानागुम् सोमः पवित्रमत्येति रेभन्न श्येनो गृध्राणागस्वधितिर्वनानागुम् सोमः पवित्रमत्येति रेभन्न
I think till here we'll chant from this part, that is from Brahma Medhava. I think from here we'll chant together the Samhita part.
Brahma Medhava Madhu Medhava Brahma Meva Madhu Medhava ब्रह्मादेवानाम् पदवीः कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्राणागस्वधितिर्वनानागुम् सोमः पवित्रमत्येति रेभन्न
Now we'll do it once again, but starting from Ya Imam Trisuparna Mayachitam, one paragraph earlier, we'll chant together.
इमम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते घ्रन्ते ये ब्राह्मणास्त्रिसुपर्णम् पठन्ते ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुरन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेवमथुमेधवा ब्रह्मा देवानां पदवी कवीनां ऋषिर्विप्राणां महिषो मृगानां श्येनो गृध्रा नागस्वदितिर्वना नागुः सोम पवित्रमत्येतिरेभन् सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायणे नमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निशन्मया दासोऽयमिति माम् मत्वा क्षमस्व सा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष सा ईश्वरा हरिः ॐ तत्सत् श्रीसाईश्वरार्पणमस्तु.
With this, we come to an end to this week's Radio Sai Vedam Tutor. In the coming class, we shall continue with the Mahanarana Upanishad from where we had left. Now it's time for us to go to the next segment, that is the Radio Sai Bhajan Classroom, hosted by Brother Bishu. Sai Ram, happy listening. Stay tuned to Radio Sai Asia Stream.